ओम नमो भगवते वासुदेवाय। अथाष्टादशोऽध्यायः। श्रीशुक उवाच, तथा च भद्रश्रवा नाम धर्मसुतस्तत्कुलपतयः पुरुषा भद्राश्ववर्षे साक्षात् भगवतो वासुदेवस्य प्रियां तनुं धर्ममयीं हयशीर्षाभिधानां परमेण समाधिना सन्निधाप्येदमभिगृणन्त उपधावन्ति। भद्रश्रवस ऊचुः, ओम नमो भगवते धर्मायात्मविशोधनाय नम इति। अहो विचित्रं भगवद्विचेष्टितं घ्नन्तं जनोऽयं हि मिषन्न पश्यति। ध्यायन्न सद्यर्हि विकर्म सेवितुं निहृत्य पुत्रं पितरं जिजीविषति। वदन्ति विश्वं कवयस्मनश्वरं पश्यन्ति चाध्यात्मविदो विपश्चितः। तथापि मुह्यन्ति तवाज मायया सुविस्मितं कृत्यमजं नतोऽस्मितम्। विश्वोद्भवस्थान निरोधकर्म ते यकर्तुरङ्गीकृतमप्यपावृतः। युक्तं न चित्रं त्वयि कार्यकारणे सर्वात्मनि व्यतिरिक्ते च वस्तुतः। वेदान् युगान्ते तमसा तिरस्कृतान् रसातलाद्यो नृतुरङ्गविग्रहः। प्रत्याददेवै कवयेभि याचते तस्मै नमस्ते वितथे हिताय इति। हरिवर्षे चापि भगवान् नरहरिरूपेणास्ते तद्रूपग्रहणनिमित्तमुत्तरत्राभिधास्ये। तद्दयितं रूपं महापुरुषगुणभाजनो महाभागवतो दैत्यदानवकुलतीर्थी कर्णशीलाचरितः। प्रह्रादो व्यवधानानन्यभक्तियोगेन सह तद्वर्षपुरुषैरुपास्ते इदं चोदाहरति। ॐ नमो भगवते नरसिंहाय। नमस्तेजस्तेजसे आविराविर्भव। वज्रनख वज्रदंष्ट्र कर्माशयान् रन्धय रन्धय तमो ग्रस ग्रस ॐ स्वाहा। अभयमभयमात्मनि भूयिष्ठा ॐ क्ष्रौं। स्वस्त्यस्तु विश्वस्य खल प्रसीदतां ध्यायन्तु भूतानि शिवं मिथो धिया। मनश्च भद्रं भजता तथोक्षजे आवेश्यतां नो मतिरप्यहैतुकी। मागारदारात्मजवित्तबन्धुषु सङ्गो यदि स्यात् भगवत्प्रियेषु नः। यः प्राणवृत्त्या परितुष्ट आत्मवान् सिद्ध्यत्य दूरान्न तथेन्द्रियप्रियः। यत्सङ्गलब्धं निजवीर्यवैभवं तीर्थं मुहुः संस्पृशतां हि मानसम्। हरत्यजोऽन्तः श्रुतिभिर्गतोऽङ्गजं को वै न सेवेत मुकुन्द विक्रमम्। यस्यास्ति भक्तिर्भगवत्य किञ्चना सर्वैर्गुणैस्तत्र समासते सुराः। हरावभक्तस्य कुतो महद्गुणा मनोरथेना सति धावतो बहिः। हरिः साक्षात् भगवान् शरीरिणामात्मा दशाणामिव तोऽयमीप्सितम्। हित्वा महांस्तं यदि सज्जते गृहे तदा महत्त्वं वयसा दम्पतीनाम्। तस्माद्रजो रागविषादमन्यो मानस्पृहा भयदैन्याधिमूलम्। हित्वा गृहं संसृतिचक्रवालं नृसिंहपादं भजता कुतो भयमिति। केतुमालेऽपि भगवान् कामदेवस्वरूपेण लक्ष्म्याः प्रियचिकीर्षया प्रजापतेर्दुहित्रीणां पुत्राणां तद्वर्षपतीनां पुरुषायुषा होरात्रपरिसङ्ख्यानानां यासां गर्भा महापुरुषमहास्त्रतेजसोद्वेजितमनसां विध्वस्ता व्यसवः संवत्सरान्ते विनिपतन्ति। अतीव सुललितगतिविलासविलसितरुचिरहासलेशावलोकलीलया किञ्चिदुत्तं भितसुन्दरभ्रूमण्डलसुभगवदनारविन्दश्रिया रमां रमयन्निन्द्रियाणि रमयते। तद्भगवतो मायामयं रूपं परमसमाधियोगेन रमादेवी संवत्सरस्य रात्रिषु प्रजापतेर्दुहितृभिरुपेताःसु च तद्भर्तृभिरुपास्ते इदं चोदाहरति। ॐ ह्रां ह्रीं ह्रूं ॐ नमो भगवते ऋषिकेशाय। सर्वगुणविशेषैर्विलक्षितात्मने आकूतीनां चित्तीनां चेतसां विशेषाणां चाधिपतये। षोडशकलाय छन्दोमयायान्न मयायामृतमयाय सर्वमयाय सहसे ओजसे बलाय कान्ताय कामाय नमस्ते उभयत्र भूयात्। स्त्रियो व्रतैस्त्वा ऋषिकेश्वरं स्वतो याराध्यलोके पतिमाशासतेऽन्यम्। तासां न ते वै परिपान्त्यपत्यं प्रियं धनायोंषि यतो स्वतन्त्राः। स वै पतिः स्याद कुतो भयस्वयं समन्ततः पाति भयातुरं जनम्। स एक एवेतरथा मिथो भयं नैवात्मलाभादधि मन्यते परम्। या तस्य ते पादसरोरुहार्हणं निकामयेत् साखिल कामलम्पटा। तदेव रासीप्सितमीप्सितोऽर्चितो यद्भग्नयाच्या भगवन् प्रतप्यते। मत्प्राप्तये जेष सुरासुरादयस्तप्यन्त उग्रं तप ऐन्द्रिये धियः। ऋते भवत्पादपरायणान्न मां विन्दन्त्यहं त्वद्धृदया यतोजित। सत्त्वं ममाप्यच्युतशीर्ष्णिवन्दितं कराम्बुजं यत्त्वदधायि सात्वताम्। बिभर्षि मां लक्ष्मवरेण्यमायया क ईश्वरस्य हितमोहितुं विभुरिति। रम्यके च भगवतः प्रियतमं मात्स्यमवतार रूपं तद्वर्ष पुरुषस्य मनोः प्राक् प्रदर्शितं स इदानीमपि महता भक्तियोगेन राधयतीदं चोदाहरति। ओं नमो भगवते मुख्यतमाय नमः सत्वाय प्राणायौजसे सहसे बलाय महामत्स्याय नम इति। अन्तर्बहिश्चाखिलोकपालकैरदृष्टरूपो विचरस्युरुस्वनः स ईश्वरस्त्वं य इदं वशेनयन्नाम्ना यथा दारुमयीं नरस्त्रियं यं लोकपालाः किलमत्सरज्वरा हित्वा यतन्तोऽपि पृथक् समेत्य च पातुं न शेकुर्द्विपदश्चतुष्पदः सरीसृपं स्थाणु यदत्र दृश्यते। भवान् युगान्तार्णव ऊर्मिमालिनी क्षोणीमिमामौषधिवीरुधां निधिम् मया सहोरु क्रमतेजोजसा तस्मै जगत्प्राणगणात्मने नम इति। हिरण्मयेऽपि भगवान् निवसति कूर्मतनुम् बिभ्राणस्तस्य तत्प्रियतमाम् तनुमर्यमा सह वर्षपुरुषैः पितृगणाधिपतिरुपधावति मन्त्रमिमम् चानुजपति। ॐ नमो भगवते अकूपाराय सर्वसत्त्वगुणविशेषणायानुपलक्षितस्थानाय नमो वर्ष्मणे नमो भूम्ने नमो नमोऽवस्थानाय नमस्ते। यद्रूपमेतन्निजमायार्पितमर्थस्वरूपम् बहुरूपरूपितम् सङ्ख्यान यस्यास्य यथोपलम्भनात् तस्मै नमस्ते व्यपदेशरूपिणे। जरायुजम् स्वेदजमण्डजोद्भिदम् जराचरम् देवर्षिपितृभूतमैन्द्रियम् द्यौखम् क्षितिशैलसरित्समुद्रद्वीपग्रहक्षेत्यभिधेय एकः यस्मिन्न सङ्ख्येय विशेषनामरूपाकृतौ कविभिः कल्पितेयम्। सङ्ख्यायया तत्त्वदृशापनीयते तस्मै नमः साङ्ख्यनिदर्शनायते इति। उत्तरेषु च कुरुषु भगवान् यज्ञपुरुषः कृतवराहरूपास्ते तं तु देवी हैषा भूः सः कुरुभिरस्खलितभक्तियोगेनोपधावति इमां च परमामुपनिषदमावर्तयति। ॐ नमो भगवते मन्त्रतत्त्वलिङ्गाय यज्ञक्रतवे महाध्वरावयवाय महापुरुषाय नमः कर्मशुक्लाय त्रियुगाय नमस्ते। यस्य स्वरूपं कवयो विपश्यतो गुणेषु दारुष्विव जातवेदसं मथनन्ति मथना मनसादिदृक्षवो गूढं क्रियार्थैर्नमैरितात्मने। द्रव्यक्रिया हे त्वयनेशकर्तृभिर्माया गुणैर्वस्तु निरीक्षितात्मने। अन्वीक्षयाङ्गातिशयात्मबुद्धिभिर्निरस्तमाया कृतये नमो नमः। करोति विश्वस्थितिसंयमोदयं यस्येप्सितं नेप्सितमीक्षितुर्गुणैः। माया यथा यो भ्रमते तदाश्रयं ग्रावणो नमस्ते गुणकर्मसाक्षिणे। प्रमथ्य दैत्यं प्रतिवारणं मृधे यो मां रसाया जगदादिसूकरः। कृत्वा गदंष्ट्रे निरगादुदन्वतः क्रीडन्निवेभः प्रणतास्मितं विभुमिति। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चमस्कन्धे भुवनकोशवर्णनम् नामाष्टादशोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।